ॐ अथ पुरुषो हवे नारायणो कामयतः प्रजाः सृजयेति नारायणात् प्राणो जायते मनः सर्वेन्द्रियाणि च खम्बायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी नारायणात् ब्रह्मा जायते नारायणात् विष्णुर्जायते नारायणात् रुद्रो जायते नारायणात् इन्द्रो जायते नारायणात् प्रजापतिः प्रजायते नारायणात् द्वादशादित्या रुद्राः वसवः सर्वाणि छन्दांसि नारायणात् देवाः समुत्पद्यन्ते नारायणात् प्रवर्तन्ते नारायणे प्रलीयन्ते अथादित्यो नारायणः ब्रह्मा नारायणः शिवश्च नारायणः शक्रश्च नारायणः कालश्च नारायणः दिशश्च नारायणः विदिशश्च नारायणः ऊर्ध्वं च नारायणः अधश्च नारायणः अन्तर्बहिश्च नारायणः नारायण एवेदगुं सर्वं जद्भूतं जच्च भाव्यम् निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देवः एको नारायणो न द्वितीयोऽस्ति कश्चित् य एवं वेद स विष्णुरेव भवति स विष्णुरेव भवति ॐ इत्येकाक्षरं नमः इति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि एतद्वे नारायणस्याष्टाक्षरं पदं यो ह वे नारायणस्याष्टाक्षरपदमध्येति अनुपब्रतः सर्वमायुरेति विन्दते प्रजां रायस्पूखं गोपत्यं ततो मृतत्वमश्नुते ततो मृतत्वमश्नुते इति प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपम् अकार उकारो मकार इति तान् एकधा संयोज्य तदेव तदोमिति यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् ॐ नमो नारायणायेति मन्त्रोपासकः वैकुण्ठभुवनं गच्छति तदिदं परमं पुण्डरीकं विज्ञानघनं तस्मात्तडितावमात्रं ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूदनः ब्रह्मण्यो पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरुच्यते सर्वभूतस्थमेकं वे नारायणकारणरूपं परब्रह्मकम् एतदर्वशीर्षं योधीते सायमधियानो दिवसकृतं पापं नाशयति प्रातरधियानो रात्रिकृतं पापं नाशयति सायं प्रातः प्रयुञ्जानो अपापो भवति मध्यन्दिनमादित्याविमुखो धीयानः सद्यः पञ्चमहापातकोपपातकेभ्यः प्रमुच्यते स सर्ववेदपारायणपुण्यं लभते श्रीमन्नारायण सायुज्यमवाप्नोति य एवं वेद उपनिषत्। ओम शांति शांति शांति।